इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्याः वार्ताः। अद्य संविधानहत्यादिवसः आचर्यते। आपातकालकाले लोकतान्त्रिकमूल्यानां रक्षयन्तृभ्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना श्रद्धाञ्जलिः समर्पिता। विदेशकार्यमन्त्री डॉ एस जयशंकरः वैश्विकसमस्यानां मध्ये दृढतरसहयोगस्य आवाहनं कुर्वन् दक्षिणकोरियादेशस्य जेजू मञ्चे वसुधैव कुटुम्बकम् इत्यस्य उद्घोषश्च अकरोत्। भारतस्य ब्रिक्स 2026 इत्यस्य अध्यक्षतायाः अन्तर्गतं गुरुग्रामनगरे ब्रिक्स ऊर्जामन्त्रिणां सम्मेलनम् आरभत। वेनेजुएलादेशे एकस्यानन्तरम् अपरत्वेन प्रबलः भूकम्पः आगतः, येन बहूनि भवनानि पतितानि। देशेन आपातकालस्य च घोषणा कृता। दक्षिणाफ्रीकादेशः प्रथमवारं फीफा विश्वचषकक्रीडायाः नॉकआउट इति चरणं प्रति अगच्छत्। मोंटेरे नगरे दक्षिणकोरियादेशम् एकशून्याङ्काभ्यां पराजयत्। अपि च अद्य सायंकाले मैनचेस्टर नगरे आईसीसी महिला टी20 विश्वचषक क्रिकेट क्रीडायाः ग्रुप ए क्रीडायां भारतं बांग्लादेशेन सह क्रीडति। अथ वार्ताः विस्तरेण। अद्य संविधानहत्यादिवसः आचर्यते। पञ्चसप्तत्युत्तरैकोनविंशतितमे वर्षे जूनमासस्य पञ्चविंशे दिनांके यदा भारतस्य संविधानस्य पददलनं जातं तदा किं जातमिति एतद्दिनं स्मारयति। आपातकाले आधिक्येन पीडिताय प्रत्येकस्मै जनाय श्रद्धाञ्जलिं दातुम् अपि एषः दिवसः अस्ति। उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाहः च अद्य आपातकालस्य काले लोकतान्त्रिकमूल्यानां रक्षणार्थं दृढतया स्थितेभ्यः सर्वेभ्यः श्रद्धाञ्जलिम् अर्पितवन्तः। सामाजिकप्रसारमाध्यमे प्रधानमन्त्रिणा मोदिना उक्तं यत् आपातकालः संविधानस्य उपरि प्रत्यक्षः आक्रमणः आसीत्। सः अवदत् यत् अवसरेऽस्मिन् नागरिकस्वातन्त्रस्य निलम्बनम्, अभिव्यक्तिस्वातन्त्रस्योपरि प्रतिबन्धः, राजनैतिकनेतॄणां, पत्रकाराणां, सामाजिककार्यकर्तॄणाञ्च बन्धनम् अभवत्। भाजपेति दलेन अद्य आपातकालस्य विषये कांग्रेसपक्षस्य उपरि प्रहारं कुर्वता भारतीय इतिहासस्य कृष्णोऽध्यायः इत्युक्तम्। नवदेहलीनगरस्य पार्टी मुख्यालये प्रसारमाध्यमान् सम्बोधयन् भाजपेति दलस्य वरिष्ठः नेता रविशंकरप्रसादः अवदत् यत् आपातकालस्य तात्कालीनप्रधानमन्त्री इन्दिरागान्धीवर्यायाः आसन्दं रक्षितुं न्यायपालिकायाः उपरि आक्रमणं जातम्। प्रसारमाध्यमानि पीडितानि। विपक्षस्य नेतारः कारावासिनश्च कृताः। आपातकाले प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य भूमिकायाः प्रशंसां कुर्वन् श्रीप्रसादः अवदत् यद् मोदीवर्यः गुजराततः उत्तरभारतं यावत् उल्लेखनीयरूपेण प्रयत्नान् अकरोदिति।
जुडिशरी के खिलाफ बेशर्मी, संपादक पत्रकारिता के कॉम्प्रोमाइज करने के लिए दबाव, विपक्षियों को जेल में बंद करना और गलत तरीके से इमरजेंसी लगाना। मैं इमरजेंसी के अंडरग्राउंड में प्रधानमंत्री की भूमिका की तारीफ करूंगा। सरदार के रूप में जितना अंडरग्राउंड को उन्होंने गुजरात से लेकर उत्तर भारत को जो संगठित किया था वो कमाल था। और आज अपने ट्वीट में उन्होंने उस काले अध्याय को याद किया है कि देश की जनता ने कितनी हिम्मत दिखाई।
प्रधानमंत्रिणा नरेन्द्र मोदिना संविधान हत्या दिवसस्य अवसरे पूर्व प्रधानमन्त्रिणा अटल बिहारी वाजपेयी वर्येण लिखितायाः कवितायाः पङ्क्तयः पठिताः। सामाजिक प्रसार माध्यमे श्रीमोदी अवदत् यत् एषा कविता न केवलं पङ्क्ति संग्रहः अपितु आपातकाले लोकतन्त्रस्य उपरि आरोपितायाः वेदनायाः श्वसनावरोधस्य प्रतिबन्धानाञ्च सजीव अभिव्यक्तिः अस्तीति।
जब आपातकाल को एक वर्ष हो गया तो अटल जी ने एक कविता लिखी और उन्होंने उस समय की मनस्थिति का वर्णन अपनी कविता में किया है। झुलसाता जेठ मास शरद चांदनी उदार, झुलसाता जेठ मास शरद चांदनी उदार, सिसकी भरते सावन का अंतर्गत रीत गया, एक बरस बीत गया।
सीख चो में सिमटा जग किंतु विकल प्राण विहग, धरती से अंबर तक गुजा मुक्ति गीत गया, एक बरस बीत गया, एक बरस।
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सोमेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् विश्वम् अधुना अधिकशस्त्रीकरणम् अधिकसमाह्वानानां स्वीकरणं सामाजिकमाध्यम युगाय उपयुक्तां राजनीतिं च पश्यति। दक्षिणकोरियादेशे जेजु फोरम फॉर पीस एंड प्रॉस्पेरिटी 2026 इति सम्मेलने संबोधयन् डॉ एस जयशंकरः वैश्विकचिन्तानां निराकरणाय अधिक अन्ताराष्ट्रिय सहकार्यस्य आवश्यकताम् अपि उद्घोषयत्। वसुधैव कुटुम्बकम् इति भारतस्य प्राचीनदर्शनम् उद्धृत्य अधिकसहकार्यपूर्ण विश्वव्यवस्थायाः निर्माणाय तमेव मार्गदर्शकसिद्धान्तं निर्दिष्टवान् च। हरियाणाराज्यस्य गुरुग्रामे भारतस्य ब्रिक्स अध्यक्षता 2026 इत्यन्तर्गते द्विदिवसीयं ब्रिक्स ऊर्जामन्त्रिणां सम्मेलनम् आरब्धम्। केन्द्रीय विद्युत मन्त्री मनोहरलाल खट्टरः अवदत् यत् आर्थिकवृद्ध्यर्थं सामाजिकप्रगत्यर्थं मानवविकासाय च ऊर्जा अत्यावश्यकी अस्तीति। वेनेजुएलादेशस्य राष्ट्रपतिपदासीना डेल्सी रोड्रिक्स वर्या अद्य प्रातः काले कराकस नगरे क्षेत्रं परितश्च 2.7 तीव्रताङ्कानां भूकम्पानां कारणेन बहूनि भवनानि भग्निभूतानि इति उक्तवती। तया आपत्कालस्य घोषणा च कृता। राष्ट्रपतिः अवदत् यत् शक्तिशाली भूकम्पानां श्रृंखलायाः अनन्तरं 32 जनाः मृताः 700+ जनाः व्रणिताः सन्तीति। एतन्निमित्तं उपराष्ट्रपतिः सीपी राधाकृष्णन्वर्यः प्रधानमन्त्री नरेन्द्रमोदी च दुःखं प्रकटितवन्तौ। सामाजिकप्रसारमाध्यमे प्रधानमन्त्रिणा मोदिना उक्तं यत् भारतं सर्वैः पीडितैः सह ऐक्येन स्थितमस्ति, सर्वेभ्यश्च यथासम्भव साहाय्यं प्रदातुं च आश्वस्तिम् अददात्। प्रधानमन्त्री नरेन्द्रमोदी अद्य भारते एमेजोन संस्थायाः 48 बिलियन डॉलर इत्यस्य अभिलेख्य निवेशस्य स्वागतम् अकरोत्। श्रीमोदी नवदेहल्याम् एमेजोन संस्थायाः मुख्य कार्यकारी अधिकारी एनडी जेस्सी इत्येतमपि मिलितवान्। अद्य प्रातः जापानदेशस्य ईशान्यभागे 7.2 तीव्रतायाः शक्तिशाली भूकम्पः अभवत्, येन न्यूनातिन्यूनं 4 जनाः आहताः। इवाते प्रान्तस्य पूर्वतटे प्रायः 40 किलोमीटर मिते गाम्भीर्ये 6.9 तीव्रतायाः कम्पनम् अभवत्। उपराष्ट्रपतिः राज्यसभायाः सभापतिश्च सीपी राधाकृष्णन्वर्यः अद्य राज्यसभायाः नवनिर्वाचितान् पुनः निर्वाचितान् च 10 सदस्यान् सांसदत्वेन शपथम् अकारयत्। वाणिज्योद्योगमन्त्री पीयूषगोयलः अद्य युनाइटेड किंगडम देशस्य लंदन नगरस्य त्रिदिवसीयां आधिकारिक यात्राम् आरभत। यात्रावधौ सः भारत यूके व्यापक आर्थिक व्यापार अनुबन्धस्य अग्रिममासस्य 15 दिनांके प्रवृत्तस्य सहचर द्विगुण योगदान सम्मेलनस्य च कार्यान्वयनस्य सज्जतायाः समीक्षां करिष्यति। प्रियाः श्रोतारः, अन्ते क्रीडावार्तासु। विश्व पादकन्दुक क्रीडायाम् अद्य मोंटेरे नगरे दक्षिण कोरिया देशं विरुध्य 1-0 इति अंकाभ्याम् विजयं प्राप्य दक्षिणाफ्रीका प्रथमवारं फीफा विश्व चषकस्य निर्णायक चरणं प्रति प्रविष्टः। समूह अ क्रीडायाम् दक्षिणाफ्रीकायाः कृते एकमात्र गोल इत्युक्ते लक्ष्यभेदनं थापेलो मासेको इत्यनेन कृतम्। भारतदेशं विरुध्य बांग्लादेशः आईसीसी महिला टी20 विश्वचषके अद्य मैनचेस्टर नगरस्थे एमिरेट्स ओल्ड ट्रैफर्ड क्रीडांगणे समूह अ क्रीडायां स्पर्धिष्यते। क्रीडा भारतीय समयानुसारं सायं 7:30 आरप्स्यते। प्रियाः श्रोतारः, मुख्यवार्ताः पुनरेकवारम्। अद्य संविधान हत्या दिवसः आचर्यते। आपत्कालकाले लोकतांत्रिक मूल्यानां रक्षयन्त्रिभ्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना श्रद्धांजलिः समर्पिता। विदेश कार्यमंत्री डॉ एस जयशंकर वैश्विक समस्यानां मध्ये दृढ़तर सहयोग से आवाहनम कृतवान्। भारत से ब्रिक्स 2026 इत्यस्य अध्यक्षतायाः अंतर्गतम गुरुग्राम नगरे ब्रिक्स ऊर्जा मंत्रिणां सम्मेलनम आरभत। वेनेजुएला देशे एकस्यानंतरम अपरत्वेन प्रबलः भूकंपः आगतः इति वार्ताः।